अथ बालकाण्डः। जगद्विख्यातस्य अयोध्याख्यस्य विश्रुतनगरस्य राजा आसीत् पराक्रमसम्पन्नः दशरथः। यद्यपि दशरथः सर्वविधसम्पत्तियुक्तः आसीत् तथापि अपत्याभावदैन्यपीडितः आसीत्। तस्मात् दशरथेन कश्चन महायज्ञः समनुष्ठितः। तस्य यज्ञस्य प्रभावेण स राजा स्वतिसृभ्यः पत्नीभ्यः चतुरः पुत्रान् अवाप। कौसल्यायाः प्रियपुत्ररूपेण श्रीमन्नारायणः पृथिव्याः उपरि अवततार। स एव जगत्प्रसिद्धः श्रीरामः इति निखिलेऽपि संसारे सुप्रसिद्धोऽभवत्। राज्ञी कैकेयी भरतं सुषुवे, तथैव राज्ञी सुमित्रा लक्ष्मणशत्रुघ्नौ सुषुवे। यथा यथा ते पुत्राः प्रवृद्धाः तथा तथा ते गुरोः वसिष्ठात् युद्धादिकलाः प्रापुः। वेदवेदाङ्गानाम् अपारं ज्ञानमपि आपुः। तेषु दिनेषु विश्वामित्राख्यः कश्चन प्रसिद्धः ऋषिः आसीत्। तेन ऋषिणा एकं वैदिकयज्ञानुष्ठानं प्रकल्पितम्। विश्वामित्रेण प्रकल्पितं वैदिकयज्ञानुष्ठानं विफलं कर्तुं राक्षसैः महान् प्रयत्नः कृतः। एवं स्थिते विश्वामित्रः परमतेजस्विनं ऋषिं वसिष्ठं तत्संरक्षणाय कमपि उपायम् अयाचत। तस्मात् विश्वामित्रस्य अनुरोधेन रामलक्ष्मणौ यज्ञसंरक्षणाय विश्वामित्रेण सह प्रेषितौ राज्ञा दशरथेन। रामलक्ष्मणाभ्यां स्वधनुर्बाणाः धृताः, धनुषी प्रत्यञ्चा समारोपिता, शक्तिशालिनी राक्षसी ताडका मारिता रामेण, यज्ञकार्यविध्वंसिनी सा मृता। तस्याः मरणं श्रुत्वा तत्र अन्यराक्षसाः अपि समवेताः जाताः। पश्चात् उपाभ्यां भ्रातृभ्यां रामलक्ष्मणाभ्याम् अन्यराक्षसाः अपि मारिताः। ऋषीणां वैदिकयज्ञानुष्ठानं निर्विघ्नं जातम्। तेन ऋषयः सर्वेऽपि सन्तुष्टाः। कार्यसाफल्यानन्तरं ऋषिः विश्वामित्रः तौ रामलक्ष्मणौ भ्रातरौ आनीनाय मिथिलानगरं प्रति। पश्चात् ते सौन्दर्यपूर्णां मिथिलानगरीं प्राप्नुवन्। मिथिलागमनमार्गमध्ये परमपवित्रायाः अहल्यायाः कथा श्राविता विश्वामित्रेण। अहल्या प्रस्थरीभूता शापवशात्, परन्तु स्वपादाङ्गुष्ठेन प्रस्थरमूर्तिं स्पृशन् अहल्यायाः पुनर्जीवनप्रदानमकरोत् श्रीरामः। तद्दृष्ट्वा सन्तुष्टेन ऋषिणा विश्वामित्रेण प्रोक्तम्, हे रामभद्र, यस्मिन् दिने त्वं ताडकामारयः तस्मिन् दिने एव मया तव बाह्वोः अपरिमिता शक्तिः दृष्टा। अपि च यस्मिन् दिने स्वपादसंस्पर्शेन त्वम् अहल्याम् उज्जीवयः तस्मिन् दिने तव पादयोः माहात्म्यमपि मया दृष्टम्। एतादृशैः अन्यैश्च आनन्दमयैः वचनैः ते मनोहरपुरीं मिथिलाम् आजग्मुः। मिथिलां प्रविश्य एकस्मिन् दिने रामः राज्ञः जनकस्य पुष्पवनम् अविशत्। तत्र तेन सौन्दर्यसम्पन्ना सरसिजनयना सीतादेवी दृष्टा। रामचन्द्रः प्रथमवारं सीतां तत्रैव अपश्यत्। रामसीतयोः नेत्रसंयोगः सञ्जातः। निर्निमेषञ्च उभौ परस्परं पश्यन्तावास्थां बहुकालपर्यन्तम्। उभावपि अन्योन्यमनसि चोरयामासतुः। मिथिलाधीशेन राज्ञा जनकेन स्वपुत्र्याः विवाहः चिकीर्षितः। परन्तु यः प्रभोः शिवस्य धनुर्भग्नं कर्तुं प्रभवेत् स एव मे पुत्र्याः पतिर्भवितुं योग्यो भवेदिति तस्य अभिसन्धिरासीत्। तदा तत्र सम्प्राप्ताः सर्वेऽपि राजकुमाराः अत्यन्त शक्तिशाली शिवधनुः प्रकम्पयितुम् अपि समर्थाः नैव जाताः। इत्थं ते सर्वेऽपि यदा पूर्णरूपेण विफलाः सञ्जाताः तदा कौसल्यानन्दनः लोकाभिरामः रामचन्द्रः महर्षिं विश्वामित्रं प्रणम्य तस्मात् जयाय आशीर्वादम् अवाप्य सिंहवत् स्थैर्येण सभामञ्चम् आरुरोह। तत्र च स्थितस्सन् मेरुपर्वतैव शुशुभे। यदैव श्रीरामः त्रिनेत्रस्य महादेवस्य धनुः उत्थाप्य प्रत्यञ्चाञ्च तस्मिन् बद्धुं प्रायतत तदा महता शब्देन तद्धनुर्भग्नमभवत्। तत्शकलानि च अधः पतितानि अभूवन्। सर्वत्र जय जय ध्वनिः उत्पन्ना, आनन्दतरङ्गाश्च परितो समनुव्याप्ताः। सीता प्रमुदिता जाता। रामः तदा अयोनिजया सीतया वृतः पुष्पमालालङ्कारेण। सा तु लक्ष्म्याः एव अवतारभूता। इत्थं मिथिलायां सीतारामयोः विवाहः सुसम्पन्नः जातः। तदा दशरथादयः तत्र समागत्य अन्येषां त्रयाणाम् इक्ष्वाकुराजपुत्राणां भरतादीनां विवाहं मिथिलायाः सुन्दरराजकुमारीभिः सह सम्पादयामासुः। परिवारेण सह अयोध्यां गच्छता रामेण अयोध्यागमनवर्त्मनि परशुरामाख्यः तेजोमयः कश्चन ब्राह्मणः दृष्टः। महापराक्रमी परशुरामः स्वगुरोः शिवस्य धनुर्भङ्गेन अत्यन्तक्रुद्धो जातः। हे राम, तव अस्मिन् कर्मणि किमस्ति वीर्यम्? किमस्ति च वैशिष्ट्यम्? पुरातनम् आदावेव शिथिलीभूतम् शिवधनुः भग्नीकृतं त्वया इति परशुरामेण उच्चैः गर्जितम्। परशुरामोऽपि भगवतः विष्णोः अवतारस्वरूप एव। इत्थं प्रतिस्पर्धता पराक्रमिणा परशुरामेण उक्तं, यदि त्वं बाहुबली भवेः तर्हि मदधीने विद्यमानं नारायणस्य धनुः उत्थाप्य अवनमयितुं प्रयतस्व इति। रामेण तदपि धनुः लीलया एव भग्नीकृतम्। स्मितेनोक्तञ्च किमिदं पर्याप्तम् इति। तेन कर्मणा प्रहुष्ठेन परशुरामेण स्वतपोप्रभावेन लब्धां सर्वामपि शक्तिं रामाय समर्प्य मोदमवाप। धनोः उड्डीयमानैः शरैः परशुरामेण अमिता शक्तिः धृता। पश्चाद् रामेण महासागराणाम् अधिपतये देवाय वरुणाय तद्धनुर्दत्तम्। अत्यन्तसन्तोषेण सर्वेऽपि ते अयोध्यां जग्मुः। इति बालकाण्डः।